एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति विविधतायाम् एकता सामाहिकी सहिष्णुता चैव नेपालस्य नेपालीनां च प्रमुख विशेषता वर्तते। जनकविः केशरी धर्मराज थापा विदस्य शततम्यः जन्म जयन्त्याः अवसरे धर्मराज सावित्री थापा प्रतिष्ठानेन ह्य शीतल निवासवर्तिनी राष्ट्रपति कार्यालये आयोजिते कार्यक्रमे राष्ट्रपतिः पौडेलः लोकसंस्कृत्या साहित्येन च नेपालस्य राष्ट्रिय एकतां सामाजिकं सद्भावं च सुदृढ विधातुं योगदानं प्रदत्तमस्तीति प्रावोचत्। राष्ट्रपतिः पौडेलः नेपालस्य गरिम्नः अभिवृद्धये कलाकाराणां सृष्टीणां साहित्यकाराणां च योगदानं महत्वपूर्णमस्तीति अवदत्। तदवसरे संस्कृति पर्यटन नागरिक उड्डयन मन्त्री बद्री पाण्डे नेपालस्य संस्कृतिः नेपाली समाजस्य प्राणो वर्तते इति अवोचत्। मन्त्री पाण्डे धर्मराज थापा विदस्य गीतैः नेपालस्य भाषा लोकसंस्कृति हो प्रवर्धनाय नेपाली लोकसंस्कृतिम् आविश्वं परिचाययितुं सहयोग प्राप्तोस्तीति प्रत्यपादयत्। तदवसरे राष्ट्रपतिः पौडेलः 50 सहस्राणां रूप्यकाणां एतद् विक्रमवर्षीयं धर्मराज सावित्री थापा लोकसंस्कृति साहित्य पुरस्कारं साहित्यकाराय वैरागी काइला इत्यस्मै धर्मराज सावित्री थापा लोकसंगीत पुरस्कारं लोकगायकाय एलपी जोशीने च प्रदात्। प्रधानमन्त्री केपी शर्मा ओली भाषते देशस्य अवस्थायाः परिवर्तनं सम्प्रति प्राथमिकतायां वर्तते। नेकपा एमाले दलस्य सिन्धुपाल्चोको जनसमित्या ह्य बालुवाटारवर्तिनी प्रधानमन्त्री निवासे आयोजिते वर्धापन शुभकामना प्रदान कार्यक्रमे प्रधानमन्त्री ओली सर्वकारस्य परिवर्तनं सामान्य घटना स्थिति चर्चयन् नूतन सर्वकारस्य निर्माणेन सहैव नेपाली जना उत्साहिता सन्तीति अभाषत। सर्वकारेण भ्रष्टाचारस्य नियन्त्रणाय विकास निर्माणाय जनतायै सुख समृद्धि प्रदायक विषयाय च ध्यानं केन्द्रीकृतमस्तीति असौ अगदत्। मन्त्री ओली भूस्खलन जल विप्लव प्रभावितेषु क्षेत्रेषु सहयोगोद्धार पुनस्थापनानां विषये सर्वकारेण तीव्रतया कार्यं विधीयमानमस्तीति प्रावोचत्। प्रधानमन्त्रिणी केपी शर्मा ओलीले प्रतिवेशी राष्ट्राणां सर्वकार प्रमुखै वर्धापना शुभकामना सन्देशा प्रेषिता वर्तन्ते। प्रधानमन्त्रिणी ओलीले भारत भूटान पाकिस्तान देशानां च सर्वकार प्रमुखै वर्धापना शुभकामना सन्देशा प्रेषिता वर्तन्ते। भारतस्य समकक्षिणा नरेन्द्र मोदी इत्यनेन पाकिस्तान देशस्य प्रधानमन्त्रिणा शहबाज शरीफ इत्यनेन भूटान देशस्य प्रधानमन्त्रिणा छिरिङ तोग्बे इत्यनेन च पृथक पृथक शुभकामना सन्देशं सम्प्रेष्य ओलिनः कार्यकालस्य सफलतां प्रकाम्य कार्यकालेऽस्मिन् नेपालेन स्वदेशस्य सम्बन्ध इतोऽपि दृढो भविष्यतीति विश्वासः व्यक्तोऽस्ति। न्यायपालिकायाः पञ्चमीं पञ्चवर्षीया रणनीतिक योजना ह्य सार्वजनिक कृता अस्ति। प्रधान न्यायाधीशः विश्वम्भर प्रसाद श्रेष्ठः योजनां सार्वजनिकीकुर्वन् योजनायां न्यायपालिकायाः सुधाराय स्पष्टं प्रारूपं समाविष्टमस्तीति अभाषत। प्रधान न्यायाधीशः श्रेष्ठः विधेः सर्वेषां कृते सुनिश्चिततायै सुशासनम् उत्तरदायित्वं न्यायक्षेत्रस्य समग्र सुधारश्च पञ्चम पञ्चवर्षीय योजनया सम्पादयिष्यन्ते इति अवोचत्। सर्वोच्च न्यायालयस्य वरिष्ठ न्यायाधीश प्रकाशमान सिंह राउत न्यायिक सुधाराय अभियोगानां संख्यायां नैयून्यम् आनेयम् जनताम् आशामुखीं विधाय परिणामयुतं कार्यं च करणीयम् इति अभाषत। विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया विधे निर्माणं विधे व्याख्यानं च जनतायाः अनुकूलनत्वेन विधातव्ये इति अभाषत। कार्यक्रमे नेपाल बार एसोसिएशन संघस्य अध्यक्ष गोपाल कृष्ण घिमिरे न्यायिक सुधाराय विधि व्यवसायीरूपी सम्बद्धा पक्षा सन्ति त्यतः न्यायपालिकायाः कार्येषु विधि व्यवसायिनः सहयोगाय तत्परा वर्तन्ते इति अभाषत। अद्य हिन्दूनां पावनतिथि हरिशयनी एकादशी भगवतो विष्णोः पूजाराधन पुरस्सरं सभक्ति आयोज्यमाना वर्तते। पौराणिक कथनस्य अनुसारेण मूर नामक दैत्यस्य आतंकात् देवतः मोचयितुं कदाचित् भगवता विष्णुना महान् संघर्षो विहितः अथ च असौ युद्धस्य परिश्रमाद् विश्रान्तिं प्राप्तुं बदरिकाश्रमस्थिता महैमवती गुहां यत्य शयितः इति घटनायाः स्मृतौ आयोज्यमानः अद्यतनदिवसः हरिशयनी एकादशी नाम्ना प्रथितो वर्तते। वैदिक परम्परा अनुसारेण अद्य प्रभृति मास चतुष्टयम् यावत् भगवन्तम् विष्णुम् प्रति भक्ति प्रकटन पूर्वकम् धार्मिकानुष्ठानम् सम्पाद्यते। अद्यैव मानवाय आरोग्यदायिका महौषधेः गुण सम्बलिताम् च तुलसी विरुद्धम् स्वकीय गृह प्राङ्गणेषु संरूप्य अस्याः प्रपूजनस्य प्रचलनम् विद्यते। उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः कथयति राजनीतिका स्थिरतायाः कारणेन देशस्य अर्थतन्त्रे समस्या सृष्टा स्थित्यतः स्थिर सर्वकारस्य निर्माणेन सहैव क्रमशः समस्याः समाधास्यन्ते। ह्यः अर्थमन्त्रालये नेपाल कोषागारीय संघस्य पदाधिकारिभिस्सह विहिते मेलने अर्थमन्त्री पौडेलः अर्थतन्त्रस्य विभिन्नेष् क्षेत्रेष् सृष्टानां समस्यानां समाधानाय सर्वकारेण दृढतया कार्यं विधीयते इति समाश्वासयत्। उपप्रधानमन्त्री पौडेलः अर्थतन्त्रस्य सुधाराय नीतिगतरूपेणैव विहितस्य हस्तक्षेपस्य कृते सर्वकारेण आवश्यक कार्याणि विधास्यन्ति, तदनुसारेणैव आपणे अनुकूल सन्देशं प्रवाहयितुं कोषागारीय जनान् अनुरुणत्। प्रतिनिधिसभायाः अन्तर्गततया सार्वजनिक लेखा समित्या प्राप्त निवेदनानाम् अध्ययनम् अनुसन्धानम् च विधाय निर्णयेन सहितं प्रस्तावं प्रस्तोतुं सभापतेः ऋषिकेश पोखरेलस्य संयोजकत्वे पञ्चसदस्यीयोपसमितिः संघटिता अस्ति। समितेः ह्यः उपविष्टेन उपवेशेन अपचालिते वित्तीय निर्मितायां धारणायाम् एकरूपतां निर्धारयितुं संघीय विषय सामान्य प्रशासन मन्त्रालयस्य आयोजनायां सप्तानां प्रदेशानां लेखा समितिनां सभापतिनां महालेखा परीक्षकाणाम् अर्थमन्त्रालयस्य महानगरपालिकानां प्रतिनिधिनां च सहभागितायाम् अन्तर्क्रिया कार्यक्रमं कर्तुं निर्णीतमस्ति। एवमेव उपवेशेन देशस्य विभिन्नेष् स्थानेष् वृष्ट्या सहैव दुरापन्नासु जलविप्लव भूस्खलन वज्रपात सदृश विपत्सु निपतितान् जनान् यथाशीघ्रम् उद्धृत्य उचितावासस्य व्यवस्थया सह सहयोग सामग्री प्रदापयितुं सर्वकारः अनुरुद्धोऽस्ति। सहकारी संस्थानां वित्तापचलनस्य विषये अध्ययनाय संघटितया संसदीयानुसन्धान विशेष समित्या पूर्वसचिवै पूर्वमहालेखा परीक्षकैश्च सह विमिष्टं वर्तते। समित्या पूर्वमहालेखा परीक्षकेण टंकमणि शर्मणा, सहकारी मन्त्रालयस्य पूर्वसचिवाभ्यां गोपीनाथ मैनाली, डाक्टर दामोदर रेग्मीभ्यां सह विमिष्टमिति समितेः सभापतिः सूर्य थापा अज्ञापयत्। सहकारी संस्था सम्बद्धस्य अधिनियमस्य निर्माणस्य नियम व्यवस्थायाः सहकारी संकटेन सहैव विभिन्नानां संरचनानां विधिगतस्य व्यावहारिकस्य अभ्यासस्य अनुभवस्य च विषयेषु विमृष्टमिति सभापतिः थापा असूचयत्। उपप्रधान नगरीय विकास मन्त्रिणा प्रकाशमान सिंहेन सह नेपालस्य कृते भारतीय राजदूतेन नवीन श्रीवास्तवेन ह्यो मेलवार्ता विहिता अस्ति। मन्त्रिणः सीमस्य कार्यकक्षे सम्भूते मेलने एतयोर्मध्ये द्विपक्षीयस्य हितस्य पारस्परिक अभिरुचेश्च विषयेष् विमृष्टमासीत्। मेलने राजदूतः श्रीवास्तवः मन्त्रिणे सिंहाय सफलस्य कार्यकालस्य शुभकामनां प्रयच्छन् पारस्परिक सहयोगाभिवृद्धये भारत सर्वकारः तत्परोऽस्तीति अभाषत। एवमेव परराष्ट्र मन्त्रिणा अर्जुन राणा इत्यनया सहापि भारतीय राजदूतेन श्रीवास्तवेन मेलवार्ता विहितास्ति। नारायणगढ़ मुगलिन मार्गखण्डस्य अन्तर्गते सिमलताल स्थाने भूस्खलनेन विलुप्तस्य बसयानद्वयस्य तत्र आरूढानां जनानां च अन्वेषणाय सीमावर्ती क्षेत्रस्थै भारतीय जनपदैश्च सह सहकार्यं समन्वयश्च विहितौ स्तः। भारतीय सीमक्षेत्रे नारायणी नद्यां शवानां प्राप्तेः पश्चात् शवानां प्रवाहे भारत प्राप्तेः आशंकायां भारतस्य जनपदैस्सह समन्वयः विहितोऽस्ति। गत शुक्रवासरे यात्रीवाहकं बसयानद्वयं सिमलतालक्षेत्रे दुरापन्नेन भूस्खलनेन प्रवाह्य त्रिशूली नद्यां निपत्य विलुप्तम् आसीत्।